इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। राज्यसभायां 25-2000 वक्फ संशोधन विधेयकस्योपरि चर्चा जायमाना वर्तते। भारत थाईलैंड देशाभ्याम सूचना प्रौद्योगिकी समुद्रीयम एमएसएमई हस्तशिल्पम हस्तवयनम चेत्यादिषु विविध क्षेत्रेषु सहकार्यस्य षट्संधयः कृताः। सर्वोच्च न्यायालयेन पश्चिम वंग विद्यालयेषु 25,000+ शिक्षकाणाम अथ अन्य कर्मचारिणाम नियुक्तिः निरस्तीकृता। वित्त राज्य मंत्री पंकज चौधरी अद्य उक्तवान यत् भारत सहितस्य अनेक देशेषु अमेरिका देशेन कृतस्य 26% पारस्परिक शुल्कारोपण प्रभावस्य विश्लेषणं मूल्यांकनं च भविष्यति। अपि च आईपीएल 20-20 क्रिकेट क्रीडायाम अद्य रात्रौ कोलकातायाः ईडन गार्डन क्रीडांगणे कोलकाता नाइट राइडर्स दलं सनराइजर्स हैदराबाद दलं विरुध्य प्रतिस्पर्धिष्यति। अथ वार्ताः विशदीकृत्य। राज्यसभया 25-2000 वक्फ संशोधन विधेयकं विचारार्थं स्वीकृतम्। अस्य मुख्योद्देश्यं वक्फ सम्पत्तीनां प्रबन्धनं सुव्यवस्थिततया भवेत् इत्यस्ति। अस्मिन् विधेयके पारंपरिकस्थलानां संरक्षणं सामाजिककल्याणस्य समेधनम् इत्यादीनि प्रावधानानि सन्ति। सहैव सम्पत्तिप्रबन्धने पारदर्शितां समेध्य वक्फ परिषदि स्थानीयाधिकारिषु च समन्वयं संस्थाप्य शासनव्यवस्थायाः परिष्कारः इत्यपि वर्तते। विधेयकेऽस्मिन् विशेषतः मुस्लिम महिलानां तत्रापि विधवा महिलानां एवं विच्छेदितानां आर्थिक सामाजिक स्थितावपि परिष्कारार्थं प्रयासः कृतो विद्यते। अल्पसंख्यक कार्यमन्त्रिणा किरेण रिजिजु इत्यमुना विधेयकस्यास्य प्रकाशनसमये प्रोक्तं यत् विधेयकमिदं हितधारकैः संयुक्त संसदीय समित्या च सह विस्तृत विचार विमर्शानन्तरम् आनीतमस्ति। तेन विपक्षिदलानि विधेयकस्यास्य समर्थनार्थं सम्प्रार्थितानि विपक्षिणाम् आक्षेपान् निराकुर्वन् सः प्रोक्तवान् यत् अस्य विधेयकस्योद्देश्यं वक्फ सम्पत्तीनां सुव्यवस्थित प्रबन्धनं वर्तते, न तु मुस्लिम जनानां धार्मिकास्थायां हस्तक्षेपः वर्तते इति। भारतेन थाईलैंडेन च अद्य सूचना प्रौद्योगिकी समुद्रीयम एमएसएमई हस्तशिल्पम हस्तवयनम चेत्यादिषु विविध क्षेत्रेषु सहकार्यस्य षट्संधयः कृताः। अद्य अपराह्णे बैंकॉक नगरे प्रधानमंत्री नरेन्द्र मोदी थाई समकक्षा पैटोंग टार्न शिनावात्रा इत्यनयोः मध्ये द्विपक्षीय वार्तायाः अनन्तरं एतेषां संधीनां आदान प्रदानम् अभवत्। उभयपक्षेण द्विपक्षीय सम्बन्धानां सम्पूर्ण परिधीय प्रगतेः समीक्षा कृता। भारत थाईलैंड द्विपक्षीय सहभागित्वस्य वृद्धौ अधिकां गतिं योजयितुम् उपायानां चर्चा कृता। क्षेत्रीय बहुपक्षीय विषयेषु विचाराणाम् आदान प्रदानं च समभवत्। प्रधानमन्त्रिणा श्रीमोदिना तत्र गौरव सम्मानादिकं प्राप्तम्। द्विपक्षीय वार्तायाः अनन्तरं स्वस्य संयुक्त वक्तव्ये प्रधानमन्त्री मोदी भारत थाईलैंड सम्बन्धं सामरिक सहभागित्व रूपेण उन्नतीकरणस्य निर्णयस्य च घोषणां कृतवान्। भारतस्य एक्ट ईस्ट इति नीतौ भारत प्रशांत दृष्टौ च थाईलैंड देशस्य विशेषं स्थानं वर्तते इति सः रेखांकितवान्। श्रीमोदी अवदत् यत् ते उभयराष्ट्राणां सुरक्षा संस्थानां मध्ये रणनीतिक संवादस्य स्थापनायाः विषये चर्चां कृतवन्तः।
भारत की एक्ट ईस्ट पॉलिसी में थाईलैंड का विशेष स्थान है। आज हमने अपने संबंधों को स्ट्रेटेजिक पार्टनरशिप का रूप देने का निर्णय लिया है। सुरक्षा एजेंसियों के बीच स्ट्रेटेजिक डायलॉग स्थापित करने पर भी चर्चा की। हमारी एजेंसीज ह्यूमन ट्रैफिकिंग और इलीगल माइग्रेशन के खिलाफ एकजुट होकर काम करेगी।
श्री मोदी अवदत् यत् वार्तायां द्वाभ्यामपि पक्षाभ्यां पूर्वोत्तर भारतस्य थाईलैंडस्य च पर्यटनस्य संस्कृतेः शिक्षायाः च क्षेत्रेषु सहकार्यस्य उपरि बलं प्रदत्तम्। उभौ नेतारौ व्यावसायिकानां मध्ये परस्पर व्यापारं निवेशनं आदान प्रदानं च वर्धयितुं चर्चां कृतवन्तौ। प्रधानमन्त्री श्रीमोदी उक्तवान् यत् एमएसएमई हस्तवयनेषु हस्तशिल्पेषु च सहकार्यार्थं संधयः जाताः। प्रधानमन्त्रिणा विस्तरेण उक्तं यत् भारतस्य थाईलैण्डस्य च शताब्द पुरातनाः सम्बन्धाः गहनैः सांस्कृतिकैः आध्यात्मिक सूत्रैश्च सम्बद्धाः सन्ति। सः अवदत् यत् बौद्ध धर्मस्य प्रसारः द्वयोः राष्ट्रयोः जनानां मध्ये सम्बन्धम् अकल्पयत् अथ अयुत्थायातः नालन्दापर्यन्तं विदुषानाम् आदान प्रदानं जातम्। श्रीमोदी सबलं प्रतिपादितवान् यत् रामायणस्य कथा थाई लोकजीवने गम्भीररूपेण निहितः अस्ति अथ अद्यत्वे भाषासु परम्परासु च संस्कृतपालीभाषायाः प्रभावः अपि दृश्यते।
भारत और थाईलैंड के सदियों पुराने संबंध हमारे गहरे सांस्कृतिक और आध्यात्मिक सूत्रों से जुड़े हैं। बौद्ध धर्म के प्रसार ने हमारे जन जन को जोड़ा है। अयोध्या से नालंदा तक विद्वानों का आदान प्रदान हुआ है।
श्री मोदी भारतस्य नागरिकाणां पक्षतः भूकंपे प्राणाहुतानां प्रति शोक संवेदनां प्रकटितवान्। आहतानां शीघ्र स्वास्थ्यस्य च कामनाम् अकरोत्। अवधेयमस्ति यत् प्रधानमन्त्री श्रीमोदी श्वः भविष्यमाणस्य षष्ठे बिम्सटेक शिखर सम्मेलने भागं ग्रहीतुं थाईलैण्ड देशस्य द्विदिन यात्रायाम् अस्ति। सर्वोच्चन्यायालयेन अद्य कलकत्ता उच्चन्यायालयस्य निर्णयस्य समर्थनं विहितम् यत् पश्चिमवंग विद्यालयेषु 25,000+ शिक्षकाणाम् अथ अन्य कर्मचारिणां नियुक्तिः निरस्तीकृता। शीर्षन्यायालयेन उक्तं यत् सम्पूर्णा चयनप्रक्रिया भ्रमसहितं वञ्चनापूर्वकम् अस्ति तथा च तस्याः विश्वसनीयता वैधता च नग्नीकृता। भारतस्य मुख्यन्यायाधीशेन सञ्जीवखन्नावर्येण न्यायाधीशेन सञ्जयकुमारेण च समाविष्टपीठेन प्रोक्तं यत् पश्चिमवंगस्य विद्यालयेषु नूतन चयनप्रक्रिया मासत्रयाभ्यन्तरं सम्पन्नं भविष्यति। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। वित्तराज्यमन्त्री पंकजचौधरी उक्तवान् यत् भारतसहितस्य अनेकदेशेषु 26% पारस्परिकशुल्कारोपणस्य राष्ट्रपतेः डोनाल्ड ट्रम्पस्य निर्णयस्य प्रभावस्य विश्लेषणं मूल्यांकनञ्च भविष्यति। तेनोक्तं यत् अस्य कृते सर्वकारः उपायाञ्च निर्धारयिष्यति। श्रीचौधरी नवदिल्ल्यां प्रथम अन्ताराष्ट्रिय पेंशन अनुसन्धान सम्मेलनम् इत्यस्य उद्घाटनसत्रे संवाददातृभिः सह वार्तालापं कृतवान्। सः उक्तवान् यत् डोनाल्ड ट्रम्पस्य कृते इयम् अमेरिका प्रथमनीतिः वर्तते, तत्रैव प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः कृते भारत प्रथमम् इत्यस्ति। वित्तमन्त्रालयेन 18-2000 सर्वकारीय सञ्चय प्रवर्धन सामान्य नियमे संशोधनस्य अधिसूचना प्रख्यापिता। अस्यान्तर्गतं PPF इति सार्वजनिक भविष्यनिधिकोषाणां कृते नामाङ्कने कस्यापि परिवर्तनस्य शुल्कं निष्कासितम् अस्ति। वित्तमन्त्री निर्मला सीतारमणः अद्य सामाजिक सञ्जालीय माध्यमे अवदत् यत् राजपत्र सूचना द्वारा उक्त सर्वकारीय सञ्चय प्रवर्धन सामान्य नियमे आवश्यक परिवर्तनं कृतम्। 25,000+ वक्व संशोधन विधेयकस्य मुख्योद्देश्यं मुस्लिम महिलाभ्यः सम्पत्तौ उचित विभागः वित्तीय साहाय्य प्रदानं सहैव वक्फ सम्पत्ति प्रबन्धने तासां दृढभूमिका भवेत् इत्यस्ति। विधेयकमिदं वक्फ प्रशासने मुस्लिम महिलानां निर्णयग्रहणशक्तिमपि सुनिश्चिनोति। एतत् विधेयकं निर्धारयति यत् सम्पत्तेः वक्फ परिषदि समर्पणात् प्राक् महिलोत्तराधिकारिणः तासामधिकारं पूर्णतया प्राप्नुयुः। IPL 20-20 क्रिकेट क्रीडायाम् अद्य रात्रौ कोलकातायाः ईडन गार्डन क्रीडाङ्गणे कोलकाता नाइट राइडर्स दलं सनराइजर्स हैदराबाद दलं विरुध्य प्रतिस्पर्धिष्यति। क्रिकेट द्वन्द्वम् अद्य सायं 7:30 समारप्स्यते। गतरात्रौ बेंगलुरु नगरस्य चिन्नस्वामी क्रीडाङ्गणे गुजरात टाइटन्स दलेन रॉयल चैलेंजर्स बेंगलुरु दलं 8 पराजितम्। इति वार्ताः।